यदक्रन्दः प्रथमम् जायमान उद्यन् समुद्रादुतभापुरीषात् शेनस्य भक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातन्ते अर्वन् यमेन दत्तम् धृत एन माजुनगिन्द्र एणम् प्रथमो अध्यतिष्ठत गन्धर्वो अस्य रशनामगृह्णात्सोरादश्वम् वसवो निरतष्ट असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन असि सोमेन समजा विव्रक्त आहुस्ते त्रीणि दिवि बन्धनानि त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे उतेवमे वरुणश्चन्शर्वन् यत्रा त आहुः परमम् जनित्रम् इमाते वाजिन्नपमार्जनानीमाशफानाम् सनितुर्निधाना अत्रा ते भद्रारशना अपश्यमृतस्य जा अभिरक्षन्ति गोपाः आत्मानन्ते मनसारादजानामवो दिवा पतयन्तम् पतङ्गम् शिरो अपश्यम् पथिभिः सुगेभिररेणुभिर्जेहमानम् पतत्रि अत्रा ते रूपमुत्तममपश्यम् जिगीषमाणमिष आपदे गोः यदा ते मर्तो अनुभोगमानलादिद्ग्रसिष्ठ ओषधीरजीगः अनुत्पारथो अनुमर्यो अर्वन्ननुगावोऽनुभगः कनीनाम् अनुव्राता सस्तव सख्यमीजुरनुदेवाममिरे वीर्यन्ते हिरण्यशृङ्गोजो अस्य पादामनो जभा अवर इन्द्र आसीत् देवा इदस्य हविरद्यमाजन्यो अर्वन्दम् प्रथमो अध्यतिष्ठत ईर्मान्ता सस्सिलिकमध्यमा सस्संशूरणासो दिव्यासो अत्याह हंसा इव श्रेणिषो जतम् तेजदाक्षिषुर्दिव्यमज्ममश्वाः तव शरीरम् पतयिष्णर्वन्तव चित्तम् वात इव ध्रजीमान् तव शृङ्गाडिविष्ठिता पुरुत्रारण्येषु जर्भुराणाचरन्ति उपप्रागाच्छसनम् वाज्यर्वादे भद्री चा मनसा दीध्यानः अजः पुरो नीयतेनाभिरस्यानुपश्चात्कपयो ओजन्ति रेभोः उपप्रागात्परमम् यत्सधस्थमर्भाङ् अच्छा पितरम् मातरम् च अद्य देवाञ्जुष्टतमो हि गम्या अथ शास्ते दाशुषे वार्याणि